एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। हेटौडा काष्ठमण्डपयोः योजकस्य भीमफेदी कुलेखानी काष्ठमण्डप मार्गखण्डस्य अन्तर्गते भीमफेदी ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य जुरीखेतवर्तिनी मार्गे ह्यसायं दुरापन्नायां सुमोयानस्य दुर्घटनायां षड्जनाः मृताः सन्ति। काष्ठमण्डपात् हेटौडा स्थानं प्रति गच्छतः सुमोयानस्य दुर्घटनायाम् आहतेषु नवसु जनेषु षड्जनाः उपचारस्य क्रमे मृताः सन्तीति मकवानपुर जनपद प्रहरी कार्यालयस्य प्रवक्ता प्रहरी नायब उपरीक्षकः पुष्कर बोगटी असूचयत्। मृतकानाम् सत्यापनम् अवशिष्टम् वर्तते। प्रवक्तुः बोगटी इत्यस्य अनुसारेण आहताः जनाः उद्धृत्य उपचाराय हेटौडा चिकित्सालयं प्रापिताः आसन्। अवशिष्टानां त्रयाणां जनानाम् उपचारः जायमानो स्थिति प्रहरिणा संसूचितम् वर्तते। प्रधान न्यायाधीशः प्रकाशमान सिंह राउत निगदति सामाजिक सञ्जालेषु न्यायालयस्य न्यायाधीशानां च विरूद्धे सुनियोजितरूपेण प्रहारं कृत्वा न्यायालयं दुर्बलयितुं विधीयमानं षड्यन्त्रं प्रति न्यायालयो गभीरो वर्तते। सर्वोच्च न्यायालये ह्य विभिन्नानां संचार माध्यमानां सम्पादकैः बीते विमर्शने प्रधान न्यायाधीशः राउत देशस्य गभीरावस्थायां प्राप्तेः अवस्थायां न्यायालयमाधृत्य वितेन श्रृंखलाबद्धेन नियोजितेन च प्रहारेण न्यायप्रणाल्यां गभीरो दुष्प्रभावः आपतितुं शक्नोति त्यस्मिन् विषये सावधाना भवितुम् अन्वरुणत्। प्रधान न्यायाधीश राउत अभिव्यक्ति स्वतन्त्रताया क्रमे न्यायालयान् न्यायाधीशान् च लक्ष्यीकृत्य विहितः प्रहार स्वीकर्तुं न शक्यते इति चर्चयन् न्यायालयस्य आलोचना टिप्पणी च कर्तुं शक्यते परं ताभ्यां यथार्थपराभ्यां तथ्याधृताभ्यां च भाव्यमित्यत्र बलं प्रादात्। कार्यक्रमे सर्वोच्च न्यायालयस्य वरिष्ठ न्यायाधीश सपना प्रधान मल्ल न्यायालयः न्यायाधीशा च दोषपूर्णाः सन्तीति भाष्य निर्माणेन न्यायिक संरचनायामेव प्रहार विधीयमानोऽस्तीति प्रावोचत्। विमर्शने सम्पादकैः सामाजिक सञ्जालेभ्य मूलाधारस्य पत्रकारिता भिन्न विषयोऽस्तीत्यस्मिन् विषये सर्वैर्ध्यानं देयं भवति। निर्णयः सामान्य नागरिकाणां कृते बोधगम्याः भवेयुः। समये एव न्याय सम्पादनं विधातव्यम् इत्यादिषु विषयेषु परामृष्टं प्रदत्तम् आसीत्। प्रधानमन्त्रिणा सुशीला कार्किणा सह थारू कल्याणकारी सभायाः प्रतिनिधिमण्डलेन मेलवार्ता विहितास्ति। बालवाटारवर्तिनी प्रधानमन्त्री निवासे पूर्वेद्युः सम्भूते मेलने प्रधानमन्त्री कार्के संविधानेन विधिना च प्रदत्तानाम् अधिकाराणाम् क्रियान्वयने केनापि व्यवधानम् न स्रष्टव्यम् इति प्रावोचत्। मेलने सभायाः अध्यक्ष प्रेमीलाल चौधरी आगामिनः माघमासस्य प्रथमे दिवसे टूडीखेल स्थाने आयोक्ष्यमाणस्य कार्यक्रमस्य कृते प्रधानमन्त्रिणे कार्किणे निमन्त्रणापत्रम् हस्तान्तरितवान्। तदवसरे कार्यक्रमस्य आयोजक समितेः अध्यक्षश्च चौधरी संविधानस्य निर्माणानन्तरं दशवर्षाणां पश्चादपि थारू समुदायानां कृते सर्वकारीय सेवायाम् आरक्षणस्य सुनिश्चयनं सम्भूतं नास्तीति उक्त्वा वेदनाम् अकरोत्। गृहमन्त्रिणा ओमप्रकाश अर्यालेन सह मुस्लिम समुदायानां समूहत्रयस्य प्रतिनिधिभिः पूर्वेद्युः पृथक् पृथक् मेलवार्ता विहितास्ति। गृहमन्त्रालये मेलवार्ताया क्रमे राष्ट्रिय मुस्लिम समन्वय समितेः पदाधिकारीभिः संघीय लोकतान्त्रिक गठबन्धनस्य पदाधिकारीभिश्च ह्य गृहमन्त्रिणे ज्ञापनपत्रं च अर्पितं वर्तते। मेलने मुस्लिम समुदायस्य ज्ञापनपत्रं गृह्णन् गृहमन्त्री अर्यालः परस्परं धर्म सम्प्रदायेषु प्रभावसर्जकाः यान् कान् अपि जनान् दण्डयितुं सर्वकारः प्रतिबद्धोऽस्तीति उदैरयत्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः उपवेश अद्य उपविशति। ललितपुरस्य सानेपा वर्तिनी दल केन्द्रीय कार्यालये अद्य दिवा एकवादने उपवेक्ष्यमाणे उपवेशे नेपाली कांग्रेस दलस्य पञ्चदश महाधिवेशनस्य राष्ट्रिय सभायाः आसन्न निर्वाचनस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य विषयेषु अन्येषु सामयिक विषयेषु च विमृक्षते इति कार्यालयस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः संसूचितवान् वर्तते। विधायन व्यवस्थापन समिते ह्यस्तनोपवेशे सांसदै प्राचीनानां चलचित्राणां संरक्षणाय डिजिटल प्रविधौ नयनाय प्रोत्साहनं प्रदातव्यमिति उक्तं वर्तते। सिम्बप्रसादवर्तिनी संघीय संसद सचिवालये पूर्वे द्युपविष्टे उपवेशे सांसदाः राष्ट्रस्य इतिहासस्य संस्कृतेश्च प्रतिबिम्बकानां प्राचीनानां चलचित्राणां संरक्षणाय सर्वकारेण आर्थिक सहयोगश्च विधेय इति बलं प्रादुः। संचार सूचना प्रविधि मन्त्री जगदीश खरेला देशस्य सूचना प्रविधि क्षेत्रे अग्रणयनत्वेन कार्यं विद्यमानम् अस्तीति उक्तवान् वर्तते। सूचना संचार प्रविधेः तत्कृष्टवर्षीय पुरस्कारस्य विजेतृभिः सह पूर्वेद्युः मन्त्रालये विहिते विमर्शने मन्त्री खरेला वैद्युताङ्कनयुत नेपालस्य कृते नीतिगत सुधारस्य कार्याणि जायमानानि सन्तीति असूचयत्। शिक्षा विज्ञान प्रविधि मन्त्री डाक्टर महावीर पुन मधेस प्रदेश शिक्षाया क्षेत्रे पश्चवर्ती सम्भूतोस्तित्यत्र चिन्ताम् व्यनक्ति। शिक्षा विज्ञान प्रविधि मन्त्रालयस्य समायोजनायां मधेस प्रदेशस्य शिक्षा संस्कृति मन्त्रालयस्य समन्वयेन च ह्य जनकपुर धामनी आयोजितम् साक्षरता प्रदेश घोषणाभियानस्य पूर्व कार्य सम्बद्धम् कार्यक्रमम् पूर्वेद्युः उद्घाटयन् मन्त्री पुन मधेस प्रदेशस्य सम्प्रति शिक्षा क्षेत्रे दुर्वली भवनम् दुःखदम् वर्तते इति उदैरयत्। गत भाद्रमासस्य त्रयोविंश चतुर्विंश दिवसयो घटनाया अनुसन्धानाय संघटिताय आयोगाय तात्कालिक प्रधानमन्त्रिणः केपी शर्मा ओलिनः लिखितम् स्पष्टीकरणम् प्राप्तमस्तीति आयोगस्य प्रवक्ता विज्ञान राज शर्मा संसूचितवान् वर्तते। आयोगस्य प्रवक्ता शर्मा तात्कालिक प्रधानमन्त्रिणः रूपेण ओलिनः स्पष्टीकरणम् आयोगाय ह्यः प्राप्तमस्तीति असूचयत्।